एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। ईरान देशस्य विरुद्धे अमेरिका इजरायल देशाभ्याम् सैन्याक्रमणम् प्रारब्धम् वर्तते। राजधान्याम् तेहरान स्थाने सर्वोच्च नेतुः अयातुल्ला अली खामेनी इत्यस्य कार्यालयस्य निकटे प्रथमं आक्रमणं विहितमस्ति चेत् तदनन्तरं ईरान देशस्य विभिन्न नगरेषु विद्यमानेषु सैन्य केन्द्रेषु नैरन्तर्येण आक्रमणं विद्यमानं वर्तते। राष्ट्रपतिना ट्रम्प इत्यनेन सामाजिक सञ्जाले सार्वजनिक कृते श्रव्यदृश्य सन्देशे अमेरिका देशेन ईरान देशे प्रमुख युद्ध चरणानि प्रारब्धानि सन्तीति संसूचितं विद्यते। राष्ट्रपतिः ट्रम्प ईरान देशेन आणविक कार्यक्रमं विस्तार्य अमेरिका देशं यावत् प्राप्तुं समर्थानां क्षेप्यास्त्राणां विकासस्य योजना निर्मितास्तीति न्यश्चिनोत्। अत्रान्तरे ईरान देशस्य मिनाब जास्क इत्यादि नगरेषु अमेरिका इजरायल देशाभ्याम् विहिते आक्रमणे शतशो जना मृताः सन्ति, तत्र कतिपय उच्च नेतारश्च विद्यन्ते इति उक्तं वर्तते। आक्रमणस्य कारणेन सम्पूर्णे ईरान देशे अन्तर्जाल सेवा पूर्णरूपेण अवरूद्धास्तीति बीबीसी समाचार सेवया ज्ञापितं वर्तते। अत्रान्तरे आक्रमणस्य पश्चात् ईरान देशस्य परराष्ट्र मन्त्रिणा अब्बास अराघजी इत्यनेन देशद्वयं मिलित्वा विहितम् आक्रमणं पूर्णतः विना कारणम् अवैधं च अस्तीति आरोपितं वर्तते। अमेरिका इजरायल देशयोः आक्रमणस्य कारणेन मध्यपूर्व क्षेत्रेषु चिन्ता वर्धितास्ति। अमेरिका देशेन सम्प्रति मध्यपूर्वस्थेषु कतार यूएई बहराइन सीरिया जोर्डन सऊदी अरबिया इराक क्षेत्रेषु अपि देशेषु अपि व्यापकम् आक्रमणं प्रारब्धं वर्तते। कतिपय देशैः स्वस्य उड्डयनस्थलानि सम्प्रति पिधापितानि वर्तन्ते। भारतात् यूएई देशं प्रति प्रस्थितं विमानं भारतमेव प्रत्यावर्तितम् अस्तीति भारतीय संचार माध्यमैः ज्ञापितं वर्तते। आक्रमणमेतद् अमेरिका देशेन ईरान देशोपरि आणविक संविदाया कृते बलसर्जनं कृत्वा युद्ध विमानानां तत्परावस्थायां स्थापनस्य स्थितौ सम्भूतमस्ति। ईरान देशेन कतिपय समयात् पूर्वं बहुश क्षेप्यास्त्राणि इजरायल देशं प्रति प्रक्षिप्तानि आसन्। अत्रान्तरे चीन देशस्य परराष्ट्र मन्त्रालयेन युद्धस्य विषये अभिरूचिं प्रकटय्य ईरान देशस्य सार्वभौमसत्तायाः सुरक्षायाश्च सम्मानं कृत्वा तत्कालं युद्धविरामं कर्तुम् आहूतं वर्तते। संयुक्त राष्ट्र संघेन रूस देशेन अस्ट्रेलिया बेलायत इत्यादिभिः देशैः यूरोपीय संघेन च पक्षद्वयात् विधीयमानम् आक्रमणं मानव हिताय नास्ति, त्यतः यथाशीघ्रं युद्धविरामं कर्तुं बलं प्रदत्तम् अस्ति। अत्रान्तरे नेपाल सर्वकारेण इजरायल ईरान देशयोः विद्यमानाः नेपाली नागरिकाः सावधानताम् अवलम्बितुम् अनुरुद्धाः वर्तन्ते। परराष्ट्र मन्त्रालयेन यात्रा सम्बद्धां सूचनां प्रकाश्य इजरायल ईरान देशयोः सम्बद्धैः निकायैः निर्दिष्टाः सूचना निर्देशनानि च कठोरेण पालयितुम् अनुरुद्धमस्ति। सूचनायां काष्ठमण्डपवर्तिना परराष्ट्र मन्त्रालयेन तेल अभिववर्तिना नेपाली दूतावासेन दोहावर्तिना नेपाली दूतावासेन नच सह नियमित रूपेण सम्पर्कम् कर्तुम् अनुरुद्धमस्ति। ईरान इजरायल देशयोः भ्रमणम् कर्तुम् इच्छुकानाम् नेपाली नागरिकाणाम् कृते असामान्याम् स्थितिम् यावत् यात्राम् स्थगयितुम् परराष्ट्र मन्त्रालयेन अनुरुद्धमस्ति। अन्येषु मध्यपूर्व देशेषु निवसन्तः नेपाली नागरिकाः तत्रत्याम् अवस्थाम् ज्ञात्वा सम्बद्धस्य देशस्य सूचना अपि पालयितुं मन्त्रालयेन अनुरुद्धं वर्तते। मध्यपूर्व क्षेत्रे विमानोड्डयने प्रतिबन्धनस्य कारणेन त्रिभुवनान्तर्राष्ट्रिय विमानस्थलात् विभिन्नेषु सप्तसु अन्तर्राष्ट्रियेषु विमानस्थलेषु जायमानानि उड्डयनानि स्थगितानि सन्ति। शारजहाँ दोहा दुबई कुवेत सिटी अबुधाबी कतार दमाम विमानस्थलेषु विमानोड्डयने प्रतिबन्धस्य कारणेन यः दिवसे रात्रौ च सम्पूर्णानि उड्डयनानि स्थगितानि सन्तीति त्रिभुवनान्तर्राष्ट्रिय विमानस्थलस्य महाप्रबन्धक टेकनाथ सिटौला असूचयत। प्रतिनिधि सभाया निर्वाचनस्य कृते चत्वारि दिनानि एव अवशिष्टानि सन्ति। आगामिनी बृहस्पतिवासरे सम्पत्स्यमानस्य प्रतिनिधिसभाया निर्वाचनस्य कृते राजनीतिक दलैः प्रत्याशिभिश्च तीव्रगत्या प्रचार प्रसारौ क्रियमाणौ वर्तेते चेत् निर्वाचनायोगेन च मतदानस्य कृते अन्तिमसज्जता क्रियमाणा वर्तते। निर्वाचनस्य कृते सर्वेषु जनपदेषु निर्वाचन सामग्र्यः प्रापिताः सन्तीति च निर्वाचनायोगेन ज्ञापितमस्ति। तराई मधेसा क्षेत्रस्य सर्वेषां जनपदानां सीमावर्ती क्षेत्रेषु हिमालयीय सीमावर्ती क्षेत्रेषु च सुरक्षा व्यवस्था सुदृढा विहिता अस्ति। निर्वाचनस्य सुरक्षायै सीमावर्ती क्षेत्रेषु मतदानस्य द्वासप्ततेः घण्टाभ्यः पूर्वतः एव सीमाप्रवेशद्वाराणि पिधातुं निर्णीतं वर्तते। अत्रैव निर्वाचनायोगेन निर्वाचनाचार संहितायाः पूर्णरूपेण परिपालनं कृत्वा शान्तिपूर्ण रूपेण निर्वाचनस्य प्रचार प्रसारौ कर्तुं राजनीतिक दलानि प्रत्याशिनश्च अनुरुद्धाः वर्तन्ते। निर्वाचन विधेः अनुसारेण निर्वाचनस्य दिनस्य द्वासप्ततेः घण्टाभ्यः पूर्वतः स्थिर समयः प्रारप्स्यते इति व्यवस्थाया अनुसारेण फाल्गुन मासस्य अष्टादश दिवसस्य स्वसोमवासरस्य रात्रौ द्वादशवादनात् मौनावधिः अर्थात् स्थिरकालः प्रारप्स्यते। निर्वाचने मतदातारः शान्तमनसा शान्तवातावरणे स्वविवेकेन मतदानं कुर्युः इति धिया अस्मिन् अवधौ राजनीतिक दलानि प्रत्याशिनश्च केनापि माध्यमेन निर्वाचनस्य प्रचार प्रसारं कर्तुं निषिद्धानि वर्तन्ते। निर्वाचनायुक्तः सगुन शमशेर राणा निगदति निर्वाचनस्य मौनावधौ सम्भाविताम् अवैध गतिविधिन् रोद्धुम् अनुगमनस्य व्यवस्था विहिता अस्ति। आयुक्तो राणा मौनावधौ निर्वाचनाचार संहितायाः विपरीततया राजनीतिक दलैः प्रत्याशिभिश्च वा मतदातृन् प्रभावितान् विधातुं शक्नुवन्ति इति विषये आयोगः सचेष्टो वर्तते इति प्रावोचत। निर्वाचनायोगेन गतिविधि विपरीततया जायमानान् गतिविधिन् अवरुद्धुं जनपदानुगमनाधिकृतानां सुरक्षानिकायानां च परिचालनं विधाय विशेषेण अनुगमनस्य व्यवस्था विहिता अस्ति। आसन्न प्रतिनिधिसभा सदस्यानां निर्वाचनस्य चतस्रिभिः पर्यवेक्षक संस्थाभिः सम्पूर्ण पूर्वकार्याणि सुरक्षायाः दृष्ट्या निर्वाचनस्य वातावरणाय अनुकूलानि शान्तिपूर्णानि च सन्तीति ज्ञापितं वर्तते। नियोक नाम्न्या राष्ट्रिय निर्वाचन पर्यवेक्षण समित्या जियोक नाम्न्या जन निर्वाचन पर्यवेक्षण समित्या गैसस नाम्न्या सर्वकारीयेतर संस्थया महासंघ नेपालेन इयोक नाम्न्या निर्वाचन पर्यवेक्षण समित्या नेपालेन च यः पत्रकार सम्मेलनम् आयोज्य सम्पूर्णोऽपि देशः निर्वाचनोत्सवस्य कृते तत्परोऽस्तीति ज्ञापितं वर्तते। इति समाचाराः।